एष रेडियो नेपालः सम्प्रति समाचारः श्रीयन्ताम् प्रवाचकः ध्रुव भट्टराई। नेकपा माओवादी केन्द्रस्य केन्द्रीय समिति चतुर्थ पूर्णोपवेश ह्यः काष्ठमण्डपे प्रारब्धः। उपवेशम् सम्बोधयन् प्रधानमन्त्री माओवादी केन्द्रस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्डः अवदत्, भ्रष्टाचारस्य विरूद्धे सुशासन पक्षे च दल नेतृत्वस्य सर्वकारण विहितै कार्ये जनतायाम् आशा जागरिता वर्तते। अध्यक्ष प्रचण्ड अकथयत् जनताया सह सम्बन्धम् इतोऽपि सुदृढीकृत्य अभियानस्य रूपेण परिवर्तनकारी मूल दायित्वम् दलस्य वर्तते। अध्यक्ष प्रचण्ड दलम् स्थापितम् विधातुम् नेतृणाम् कार्यकर्तृणाम् च समाना भूमिका स्थिति भाषमाणः सर्वकारेण राष्ट्र जनतो पक्षे अग्रे बरितुम् प्रयत्यमानम् स्थिति समस्पष्टयत्। अध्यक्ष प्रचण्ड अभासत अन्ताराष्ट्रियायम् क्षेत्रीयायम् च राजनीतौ ध्रुवीकरण वर्धनस्य अवस्थायाम् माओवादी दलम् राष्ट्र जनतो पक्षे निष्ठया स्थितम् वर्तते। गतदिवसे उपवेशे अध्यक्ष प्रचण्ड दलस्य राजनीतिकम् सांगठनिकम् च प्रतिवेदनम् प्रास्तोत्। अध्यक्षेण प्रचण्डेन प्रस्तुते एतस्मिन् प्रतिवेदने आगामिनि मार्गशीर्ष मासे विधान सम्मेलनस्य आयोजनम्, दलस्य सुदृढीकरणाय भाद्र मासात् कार्तिक मासम् यावत् त्रैमासिकस्य जनताया सह दलाभियानस्य सञ्चालनं च उल्लिखिते स्तः। एवमेव सांगठनिक प्रतिवेदने दलस्य केन्द्रीयाध्यक्षता केन्द्रीय सदस्यानां कार्यविभाजनं प्रस्तावितं वर्तते। केन्द्रीय सदस्यानां कृते केन्द्रात् वडास्तर पर्यन्तं समन्वय संस्थापनं दल संगठनस्य सुदृढीकरणं च प्रस्ताविते स्तः। पञ्चदिवसीय केन्द्रीय समिति उपवेशे विमर्शनाय पञ्चसूत्रीय कार्यसूची प्रस्तुता वर्तते। गतदिवसे उपवेशे अष्टादश सदस्या धारणाम् उपस्थापयन् एवं धारणाम् उपस्थापयन्त केन्द्रीय सदस्या जनताया आकांक्षा भावनां च आत्मसात् कृत्या जनाभिरूचि विषयव्य उच्चै प्राथमिकता प्रदान पुरस्सरं दलेन अग्रे वर्धितव्यम्। सर्वकारस्य कारणं जनताया अनुकूलताया अनुभवत्वेन दलेन सर्वकारेण च कार्यं सम्पादनीयं चेति अवोचन् इति माओवादी केन्द्रस्य केन्द्रीय सदस्य माधव सापकोटा उपवेशस्य पश्चात् संचारकर्मिण अज्ञापयत्। माओवादी केन्द्रस्य केन्द्रीय समिति अपर उपवेश अद्य पूर्वाह्नस्य एकादशवादने पुनः वसति। तत्पूर्वं पेरिस डाँडा स्थिति दलस्य केन्द्रीय कार्यालये ह्य एव उपविष्टेन स्थायी समिति उपवेशेन केन्द्रीय समिति समावेशीकरणाय विधानं संशोधयितुं निर्णीतम् आसीत्। दलस्य प्रवक्ता कृष्ण बहादुर महरा स्थायी समिति उपवेशे केन्द्रीय समिति उपवेशस्य कार्यसूचा विषय विमृष्टमिति असूचयत्। दलस्य स्थायी समिति उपवेशन ह्य प्रारब्धस्य केन्द्रीय समिति उपवेशस्य प्रत्यक्ष प्रसारणं न विधातुमपि निर्णीतम् आसीत्। प्रधानमन्त्री राष्ट्रिय योजनायोगस्य अध्यक्षस्य पुष्पकमल दाहाल प्रचण्ड निगदति राष्ट्रिय योजनायोगस्य षोडशा योजनाया समग्रार्थतन्त्री गुणात्मकं रूपान्तरणं विधेयम्। षोडशा योजनाया अवधारणां निर्मातुं ह्यः बालवाटार वर्तिनी प्रधानमन्त्री निवासे आयोजितं राष्ट्रिय योजनायोगस्य उपवेशं निर्दिशन् प्रधानमन्त्री प्रचण्ड अवोचत्, अद्यावधिक योजनाभिः देशस्य आर्थिक विकासाय सामाजिक रूपान्तरणाय च निरूढाय भूमिकाय गभीर समीक्षा आवश्यकी वर्तते। प्रधानमन्त्री प्रचण्डः नीति कार्यक्रमाणाम् आयव्ययस्य च निर्माण प्रक्रिया परम्परागता सीमित व्यक्तिनां विवेके आधृता च अस्ति, ततः अत्र व्यापकं रूपान्तरणम् आवश्यकमस्तीति बलं प्रादात्। नीति कार्यक्रमाणां प्रस्तुत्य पारितीकरणानन्तरं तत्र व्यापक विमर्शनस्य पश्चादेव आयव्ययक निर्माणस्य कार्यं प्रारब्धम् इत्यतः बलं ददत् प्रधानमन्त्री प्रचण्ड अभासत। सहसा आयव्ययकस्य निर्माणस्य परम्पराय कारणेन अन्यविधा नीति कार्यक्रमः अन्यविधम् आयव्ययकं चेति समस्या जायमाना अस्ति। आयोगस्य पूर्णोपवेशन षोडशा योजना अवधारणापत्रं स्वीकृतं वर्तते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली स्वदलं सदनं सुचारू चालयितुं तत्परं सदपि सर्वकारण सभामुखाय सूचनां प्रकाश्य सदनं स्थगयितुं प्रभाव सृष्ट इति आरोपयति। वामपन्थी नेतु तुलसीलाल अमा तस्य षड्विंशस्य स्मृति दिवसस्य अवसरे ह्यः च्यासलवर्तिनी एमाले दलस्य केन्द्रीय कार्यालये आयोजिते कार्यक्रमे अध्यक्ष ओली अवोचत् सर्वकारण सभामुखं बाध्यं विधाय सदनं चालयितुं न दत्तं नास्ति। अध्यक्ष ओली अकथयत् सुवर्ण तस्करस्य विषये गभीरेण अनुसन्धानं विधातव्यम् इति एमाले दलस्य याचना वर्तते। स्वास्थ्य जनसंख्या मन्त्रालयः चिकित्सालयस्य परिसरे परिसर सभ्यन्तरे स्वसेव स्वामित्व औषधापण रहितान चिकित्सालयन मासा भ्यन्तरे औषधापण सञ्चालयितुं निर्दिशति। मन्त्रालयेन सर्वकारीयाणां नैजानां सर्वकारी त्रणां च चिकित्सालयानां सामुदायिक प्रतिष्ठानानां चिकित्सा महाविद्यालयन च नाम्नी परिपत्रम प्रकाश्य स्वसेव स्वामित्व असञ्चालित औषधापण चिकित्सालय स्वास्थ्य संस्थापित चिकित्सालय वा मासा भ्यन्तरे औषधापणे न सञ्चालिते दण्डनं च भविष्यतीति प्रत्यादिष्टमस्ति। मन्त्रालयेन प्रकाशित परिपत्रे चिकित्सालयस्य न्यूनतम सेवा मापदण्डेऽपि चिकित्सालय परिसर सभ्यन्तरे चिकित्सालयस्य औषधापणं विहाय अपरेण औषधापणेन न भाव्यमिति प्रावधानम् अस्तीति उल्लिखितं वर्तते। एवमेव औषधापणयुते चिकित्सालये तत्र प्रयुक्तव्यानां सम्पूर्णानाम् औषधानाम् औषध सम्बद्ध सामग्रीणां च अहोरात्रिषु प्रदानार्थमपि मन्त्रालयेन निर्दिष्टं वर्तते। संसदीय श्रवण समित्या विभिन्नानां देशानां कृते प्रस्तावितेषु राजदूतेषु जनत्रयस्य श्रवणं सम्पादितमस्ति। समित्या ह्यः न्यूयॉर्क स्थितस्य संयुक्त राष्ट्र संघस्य नेपालस्य स्थायी नियोगस्य कृते परामृष्टस्य लोकबहादुर थापाविदस्य स्विजरल्याण्ड देशस्य कृते आवासीय राजदूतपदे परामृष्टस्य रामप्रसाद सुवेदिनः फ्रांस देशस्य कृते राजदूतपदे परामृष्टस्य सुधीर भट्टराई इत्यस्य च श्रवणं सम्पादितमस्ति। श्रवणस्य क्रमे राजदूतपदे नियुक्ता लोक बहादुर थापा रामप्रसाद सुवेदी सुधीर भट्टराई च स्वस्व धारणा उपस्थापयन् तत्पूर्वम् उपवेशस्य प्रारम्भे समित्या राजदूतानां परामर्शस्य सम्बन्धे उत्थापिते समावेशिताया विषये परराष्ट्र मन्त्रिणा एनपी साउद इत्यनेन सह विमृष्टम् आसीत्। विमर्शस्य क्रमे मन्त्री साउद राजदूतपदे न्यूनतोपि प्रतिशतं 50% परराष्ट्र सेवाय कर्मचारिणां नियुक्ति निर्देशिकाय प्रावधानस्य पालनया सह राजदूतपदे परामृष्टा सन्तीति समस्पष्टयत्। परराष्ट्र मन्त्री साउद सर्वविधा नियुक्ति समावेशिनी विधातुं सर्वकार प्रतिबद्धोऽस्ति अस्यां नियुक्ति प्रक्रियायामपि विषयस्वयं पूर्णतः परिपालयतुस्ति च असूचयत्। मन्त्री साउद विभिन्न देशा नियोगाश्चेतिकृत्वा नेपालेन 33 राजदूता नियुज्यन्ते। सम्प्रति 27 देशेषु राजदूता सन्ति। षण्णां देशानां कृते सम्प्रति राजदूता परामृष्टः। एकस्य देशस्य कृते परामर्शनम् अवशिष्टम् अस्तीति ज्ञापयन् समग्र राजदूत नियुक्ति समावेशिनी अस्तीति समस्पष्टयत्। उद्योग वाणिज्य पूर्ति मन्त्री रमेश रिजालः खाद्य पदार्थानां मूल्यवृद्धि निवारणत्वेन देशस्य आपूर्ति व्यवस्थां सहजां विधातुं निर्दिशति। मन्त्रालये ह्यः सम्पन्ने विमर्शने मन्त्री रिजालः सम्पूर्णान् सम्बद्ध निकायन् सचेष्टताम् अवलम्ब्य आपूर्ति व्यवस्थायां कथं विधा अपि त्रुटि दुर्बलता निवार्य सर्वै स्वस्व पक्षतः भूमिका वहनार्थं बलं ददत् आपूर्ति व्यवस्थां सहजीकर्तुं निर्दिशत्। मन्त्री रिजालः आपूर्ति व्यवस्थायां सम्भाव्या समस्या समाधानाय मन्त्रालयस्य पक्षतः सर्वविधं सहजीकरणं विधीयते इति प्रतिबद्धताम् अभिव्यनक। सुनसरी जनपदस्य धरानुप महानगरपालिकायां डेंगी रोगस्य नियन्त्रणाय पालिकाया सर्वा शैक्षिक संस्था पिधापिता सन्ति। कार्यपालिकाया गत मंगलवासरस्य उपवेशने एवं निर्णीतमस्ति। विद्यालयेषु पठन पाठनं पिधाप्य डेंगी रोगस्य नियन्त्रणाय अभियानं सञ्चालयितुं निर्णीतमस्तीति धरानुप महानगरपालिकाया प्रमुख हर्कराज साम्पाङ अज्ञापयत्। उपमहानगरेण पिधापनस्य अवधौ विद्यालयानां शिक्षका विद्यार्थिनश्च डेंगी रोगस्य नियन्त्रणाय चालिते अभियाने सहभागिनो भवितुम् अनुरुद्धा सन्ति।